सर्वेभ्यः नमस्कारः. मङ्गलाचरणम् अहं वदामि. ॐ गणेशाय नमः. ॐ वागर्थाविव संप्रप्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ. ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्ति. सर्वेभ्यः स्वागतम्. अधुना वयं किञ्चित् गतसप्ताहे किं किं कुर्मः एकवारं पुनः अभ्यास कुर्मः. मम नाम गीताञ्जलिः. मम नाम गीताञ्जलिः. दीपशिखा भगिनी, भवत्याः नाम किम्? दीपशिखा भगिनी अस्ति वा? प्रेमा भगिनी. प्रेमा भगिनी, भवत्याः लास्या भगिनी म्यूट् करोतु कृपया.
मम नाम प्रेमा. भवत्याः नाम किम्?
मम नाम गीताञ्जलिः. प्रेमा भगिनी, कृपया कृपया अपर्णा भगिनी भगिनीं पृच्छतु.
मम नाम प्रेमा. भवत्याः नाम किम्?
मम नाम अपर्णा.
भगिनी नितिन् महोदय कृते पृच्छतु.
भवतः नाम किम्?
मम नाम नितिन्. भवत्याः नाम किम्?
मम नाम गीताञ्जलिः. नितिन् महोदय, कृपया उषा भगिनीं पृच्छतु.
भवत्याः नाम किम्?
मम नाम उषा. भवतः नाम किम्?
मम नाम नितिन्.
उषा भगिनी, कृपया चेन्ना भगिनीं पृच्छतु.
मम नाम उषा. भवत्याः नाम किम्?
मम नाम चेल्ना.
चेल्ना भगिनी, लास्या भगिनी भगिनीं पृच्छतु.
भवत्याः नाम किम्?
मम नाम लास्या. भवत्याः नाम किम्?
मम नाम गीताञ्जलिः। लास्या भगिनी कृपया लेखा भगिनीं पृच्छतु।
मम नाम लास्या, भवत्याः नाम किम्?
सुन्दरं। लेखा भगिनी दीक्षिका भगिनीं पृच्छतु कृपया।
मम नाम लेखा,
मम नाम दीक्षिका, भवत्याः नाम किम्?
मम नाम लेखा।
सुन्दरं सुन्दरं सुन्दरं, धन्यवादः। अपि च अधुना अभ्यासपुस्तकम् उद्घाटयन्तु सर्वे कृपया। अभ्यासपुस्तकं पुटसङ्ख्या 2, पुटसङ्ख्या 2, पेज् नम्बर् 2। यदि किमपि समीपे अस्ति चेत् कथं वदामः वयम्? नितिन् महोदय, यदि किमपि समीपे अस्ति चेत् वयं कथं वदामः?
एषः
एषः, सुन्दरं सुन्दरं। यदि हमारे समीप में कोई है, पास में कोई है, तो हम उनको एषः करके बोलेंगे। एषः एषः बालकः,
एषः
लास्य, एषः बालकः। अपि च यदि लास्य भगिनी कृपया म्यूट करोतु। धन्यवादः। यदि किमपि दूरे अस्ति चेत् वयं कथं वदामः प्रेमा भगिनी? सः इत्युक्ते किं?
He or that, if he, masculine gender, if it is far away.
Uttamam. Saha ichukte, he, saha apicha, pumlingaha. Yadi, kimapi, kapi mahila, समीपे अस्ति चेत् वयं कथं वदामः चेल्ना भगिनी?
एषा
एषा। कृपया एकं लघु वाक्यं रचयतु। लघु इत्युक्ते
A sentence, tell a sentence using that word.
Laghu ichyukte, small, chota.
Chota
vakya, laghu vakya. Means what? Two word sentence, laghu.
Laghu means chota.
Laghu mane chota. Kripaya, ekam laghu vakyam rachayatu banaye.
Esha Sita.
एषा सीता। उत्तमम् उत्तमम्। यदि कापि दूरे अस्ति चेत् तदनन्तरं कथं वदामः दीक्षिका भगिनी?
सा।
उत्तमम्। कृपया एकं लघु वाक्यं रचयतु।
सा बालिका
इत्युक्ते भगिनी?
सा बालिका मीन्स् वः बालिका।
सा बालिका माने बालिका वह लड़की वह बालिका उत्तमम् उत्तमम् यदि किमपि नपुंसकलिङ्ग् वस्तुनि समीपे अस्ति चेत् तदनन्तरं कथं वदामः लास्या भगिनी
हलो
वदतु भगिनि म्यूट् करोतु भगिनि चिन्ता मास्तु म्यूट् करोतु उषा भगिनी यदि किमपि वस्तुनि समीपे अस्ति चेत् वयं कथं वदामः
एतत्
एतत् उदाहरणं
एतत् एतत् कम्प्यूटर् एतत् लेप्टाप्
उत्तमम् उत्तमम् एतत् सङ्गणकम्
ओ सङ्गणकम्
संगणकम कंप्यूटर करता क्या है कंप्यूटर एक्चुअली वो जैसे गणित होता है ना इट डज मैथ रियली कंप्यूटर इज अ मैथ मशीन करेक्ट है ना तो संगणकम गण संगण
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 दूरध्वनि यंत्र
उत्तम महोदय एतत् दूरध्वनि दूरवाणी दूरवाणीयन्त्रम् एतत् पुस्तकम् एतत् पुस्तकं उषा भगिनी इत्युक्ते
वाट् एम् ऐ सपोज़्ड् टु से
एतत् पुस्तकम् इत्युक्ते माने
दिस् इस् अ बुक्
यः किताब्
यः पुस्तक किताब्
यः पुस्तक यदि किमपि दूरे अस्ति चेत् तत् तदनन्तरं कथं वदामः
तत्
तत् उत्तमम् एकं लघुवाक्यं रचयतु भगिनि
तत् पुस्तकं
तत् पुस्तकं
तत् पुस्तकं गृहं
तत् गृहं तत् गृहम् इत्युक्ते
दट् इस् अ हौस्
वह घर है वह पुस्तक है धन्यवाद भगिनी लास्या भगिनी अपि च लेखा भगिनी भगिन्यौ अवगतं वा डिड यू अंडरस्टैंड समझ आया उत्तमम् एतत् पुस्तकम् अवदतु भगिनी
तत्
पुस्तकं तत् पुस्तकम् इत्युक्ते भगिनी माने इत्युक्ते माने माने मीन्स् तत् पुस्तकम् इत्युक्ते वह पुस्तकम्
पुस्तकम्
हिंदी बोलते हैं आप लोग
नहीं
इंग्लिश बोलते हैं आप लोग यस यू अंडरस्टैंड इंग्लिश और यू अंडरस्टैंड हिंदी विच वन यू अंडरस्टैंड
आई अंडरस्टैंड इंग्लिश
इंग्लिश सो एतत् पुस्तकम् मीन्स दिस इज दिस बुक दिस इज अ बुक तत् पुस्तकम् इत्युक्ते मीन्स दैट इज अ बुक एषः बालकः मीन्स् दिस् बोय् दिस् इस् अ बोय् सः बालकः मीन्स् देट् इस् अ बोय् दिस् एण्ड् देट् यु अण्डर्स्टाण्ड् दिस् एण्ड् देट् एण्ड् देर् आर् थ्री जेण्डर्स् इन् संस्कृतभाषा शेल्ना भगिनी वदतु किं किम्
एतत् लेखनी
उत्तमं भगिनि उत्तमम् उत्तमं, कृपया म्यूट् करोतु, म्यूट् करोतु भगिन्यौ। चेन्ना भगिनी, संस्कृतभाषायां कति लिङ्गः सन्ति? हौ मेनि जेण्डर्स् आर् देर्?
पुल्लिङ्ग्, स्त्रीलिङ्ग्, नपुंसकः।
पुंलिङ्गः,
पुल्लिङ्गः, स्त्रीलिङ्गः।
भगिनी भगिनी शृणोतु भगिनी,
पुंलिङ्गः,
पुंलिङ्गः, देर् इस् लैक् नासिक स्लैट् नेज़ल् इस् देर्, इट् इस् नैदर् complete naka na nor is it a complete ma, it's like a pung, like when you say hu.
Okay.
Punglingah,
punglingah.
Uttamam bhagini. Apicha
strilingah.
Uttamam. Apicha
napunsakah.
नपुंसकलिङ्गः,
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 नपुंसकलिङ्गः।
उत्तमम् उत्तमं भगिनि, अस्तु अस्तु, अहम् इति मन्ये ओके, अहम् एकम् पदं ददामि, ऐ विल् गिव् यू अ वर्ड्, वन् वर्ड्, कृपया स्वीकृत्य अपि च एकं लघुवाक्यं रचयतु। मैं एक शब्द दूंगी, उसको लेकर आप एक छोटा सा वाक्य बनाए, यू टेक दैट वर्ड एंड यू मेक अ स्मॉल सेंटेंस विद इट, एंड इफ यू डोंट नो यू आस्क। ओके एवरीबडी, दीपशिखा भगिनी, स्यूतः, स्यूतः इत्युक्ते बैग, थैला, स्यूतः, स्यूतः, दीपशिखा भगिनी,
एषः स्यूतः,
इत्युक्ते भगिनी
सः स्यूतः,
एषः स्यूतः, लास्या भगिनी कृपया म्यूट् करोतु भगिनी,
एषः स्यूतः,
एषः स्यूतः इत्युक्ते भगिनी,
एषः स्यूतः वः
नहीं आएगा ना, एतत् स्यूतः आएगा, स्यूतः एस नपुंसकलिङ्ग, एतत् स्यूतः,
स्यूतः इति इति महोदय पुंलिङ्गः शब्दः, स्यूतः, स्यूतः, पुंलिङ्गः, एषः स्यूतः इत्युक्ते भगिनी,
वः, वः बैग, वः,
वः इत्युक्ते दूरे वा समीपे वा,
एषः इस् समीपे, तो यः बैग,
उत्तमं,
यः बैग, यः बैग,
यः
थैला, यः थैला,
यः थैला है। सो अनदर थिंग वी लर्न इन संस्कृत भाषा इज दैट इन इंग्लिश इट डजंट मेक सेंस, वन सेंटेंस लाइक यू से दिस बैग इज एन इनकम्प्लीट सेंटेंस इन इंग्लिश, हिंदी में भी यह थैला, तो यह थैला का क्या करूं मैं, यू से क्या यह थैला, क्या यह थैला है, यह थैला था, हम लोग को वी हैव टू फिनिश इट विद अ वर्ब, करेक्ट, इन हिंदी ऑल्सो, इन इंग्लिश ऑल्सो वी हैव टू एड लाइक अ वर्ब एट द एंड, लाइक व्हाट अबाउट दैट ऑब्जेक्ट, बट इन संस्कृत भाषा दैट इज मेनी मेनी टाइम्स, मोस्ट ऑफ द टाइम इम्प्लाइड, सो देयरफॉर व्हेन यू से एषः स्यूतः, यू आर सेइंग एषः स्यूतः अस्ति, that asti means hai, is, this is a bag, is, that is means asti,
ओके
सो अस्ति इज इम्प्लाइड इज नॉट ऑलवेज सेड बट टुडे व्हाई डोंट यू ऑल एवरीबॉडी सर्वे जनाः कृपया अस्ति उपयुज्य करोतु प्लीज यूज इट टुडे धन्यवाद भगिनी अपर्णा भगिनी
गीता भगिनी शंका
वदतु महोदय
स्यूतः हाउ मतलब ये पुल्लिंग कैसे हो गया तो स्यूतः तो नपुंसक लिंग में आएगा ना
स्यूतः इज नोन एज अ इट इज नोन महोदय वी अंडरस्टैंड इट इट इज गिवन इन आवर टेक्स्ट एवरीवेयर
Syuta is a pulling because it has got two dots na visarga ha so I thought it is pulling because of the visarga there
uttamam 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 dhanyavada bagini adhikataya ichukte
Most of the time, mostly.
अधिकतया अकारान्तः पुंलिङ्गः शब्दः अह अस्ति ज्यादातर अह विसर्ग अलोन् नै अह दट् शार्ट् अ नाट् आह not ihi you see what I'm saying visarga sab mein hai
acha
so the visarga is the two dots at the end of the word lasya bhagini you can read sanskrit or devanagari
try can you read
devanagari can you read bhagini lasya bhagini lekha bhagini
I'll try to read.
You should start learning, Bhagini. Start learning to read that script, you know, the way that Sanskrit
is. I know Hindi to write and read.
Very good, Bhagini. If you know Hindi, then it uses the same letters.
Okay.
So you'll be able to read. So you must try to, when you look at the book, although it is given in English, you must try to read the Devanagari. What is Devanagari, Bhagini? What is Devanagari? Devanagari is not Hindi. Kopi vadatu, Devanagari.
Script.
The writing style, Bhagini. You know the letters, how they form letters. Devanagari is the script that is used in Hindi also. It is used in many languages. But Sanskrit, it comes from Sanskrit only. Hindi comes from Sanskrit only. What is your mother tongue, Bhagini? Lekha and Lasya, Bhagini?
Kannada.
Kannada also, you know, the mother of Kannada is what?
Sanskrita.
उत्तमम् ओके सो कृपया म्यूट् करोतु भगिनी धन्यवादः सो अधिकतया अकारान्तः पुंलिङ्गः शब्दः अस्ति अह इति अन्ते एट् दि एण्ड् यु विल् फैण्ड् इफ् यु फैण्ड् अह सौण्ड् एट् दि एण्ड् आफ् द वर्ड् अधिकतया लैक्लि इट् विल् बि अ पुंलिङ्गः शब्दः
तो मैं अगर मेरा नाम बोलूंगा तो वो नितिनह करके आएगा नितिनह
हाँ सो दैट इज यू विल स्टार्ट टू लर्न दैट लेटर जो पहले हम लोग संस्कृत में वी लर्न द टेबल्स डिड यू लर्न संस्कृत इन स्कूल महोदय
हाँ थोड़ा थोड़ा
हाँ नरह नरव नराह नरम नरम रामा रामव रामाह सो दोज आर विभक्तिज हाउ डू यू यूज दैट वी विल लर्न दैट You will, do any of you have, most of you probably only have this one book, this Abhyas Pustakam with you, correct? But any of you, you can start to think of getting a manjari. It is called a shabda manjari. For those that are interested, this is not part of the syllabus yet, but if you are interested, shabda manjari, these are small like kunji books, you know, very thin and small books. And they are called shabda manjari. Shabda means nouns. Shabda mane noun in this particular context. And uske andar you will find lots of tables. Ramah Ramau Ramah, Ramam Ramau Raman, Ramena Ramabhyam Ramaihi, like that, on and on and on. Then, the very first Ramah in that table is called the, how you will call yourself, or how anybody, you know, how you will call, refer to yourself, or how you will refer to yourself as a third person. Like Ramaha did this. You will not say Rama Gachati. Gachati ityukte goes. Yeah. You will not say Rama Gachati. You will say Ramaha Gachati. Why will you say Ramaha? Because it is in the first line of that table and it is the Ekavachana, first line, singular. How do you know to use that? We will learn that slowly, Mahodaya.
Wo humne school mein jo sikha tha, wo kuch is tarah se batate the, jise karta ne karma ko karna se, sampadan ke liye apadan se, sambandh ka adhikaran mein sambodhan hai.
Hai.
Ye yaad reh gaya mujhe.
Haan. So, karta mane kaun? Karta means who? The doer.
Subject.
Yes.
Subject.
Subject. Subject. So, what is the form of the word when it is the subject?
Ramaha.
Ramaha. So, Nitinaha. See how that works, Mahodaya? That is why when you say my name, Mama Nama Nitinaha, because you are the karta there.
Subject.
You are the subject.
Syutaha, abhi samajh mein aaya. Syutaha, why Syutaha is, matlab, Syutaha kyun pulling?
It is not Napumsakaling because of the Visarga Aha.
Visarga.
Now, also I want to tell you, so I'm talking a little bit in English so everybody can understand. Also in Hindi I'll keep talking. So, Adhikataya, mostly, you cannot say, oh, every word with the Aha has to be masculine, Pumlinga, no. But especially in the beginning classes, you will find that mostly we will try to make give you this pattern because it is a common pattern. That's why we give it. That's why we are taught it. We learn it and then we offer it. So, in aha ending words, they are mostly likely to be pumlingaha. Lekha bhagini pumlingaha ichukte.
English.
Girl.
No. She's asking
Pumlinga. Pumlinga ichukte bhagini.
Boy.
Good. Pumlinga ichukte, it is the gender, masculine gender, male gender bhagini.
Okay.
It doesn't mean boy. Of course, boy is included in that. But Pumlinga means just the gender bhagini. You understand gender? Your
yes.
Mommy will tell you later more about what gender means.
Okay.
You ask your mommy later. Right now, Pumlinga means masculine, male gender. Strilinga ichukte?
Girl.
Girl gender. Feminine gender they call in English. Feminine gender. And then? Neuter gender is Napumsakalingaha.
Napumsakalingaha. Non-living things.
No, Bhagini. Non-living or living is not like that. English is very, what should I say? For in English, everything that is non-living is it. And even some things that are living are it. For example, you'll call a tiger it. When you see a tiger, he's off the tree, what will you say? Oh, mummy, there's a tiger on the tree. It is sitting on the tree, yes?
Yes.
So is it non-living?
No.
No. No. So you cannot compare like that with English, no, Bhagini. So you have to be careful. Don't think like living and non-living. Sanskrita bhasha will rewire the way you think about everything in the universe. That is why I love this journey of learning Sanskrit. Mute karo tu bhagini kripya. Lekha bhagini. Kinchit dhvani hai asti. You, some sound is coming from your line. Kripya mute karo tu bhagini. Lasya bhagini. Prema bhagini kripya mute karo tu. Apicha. Aparna bhagini kripya mute karo tu. किञ्चित् ध्वनिः अस्ति. धन्यवादः भगिनी, धन्यवादः. उत्तमम् उत्तमम्. सो ऐ जस्ट् ओपन् दिस् टापिक्. दिस् इस् ट्रूली वै ऐ एम् एन्जाय्ङ्ग् एण्ड् लविङ्ग् दिस् जर्नी आफ़् संस्कृत. इट् हेज़् री एस्टाब्लिश्ड् अ ब्राण्ड् न्यू रिलेशन्शिप् वित् द एण्टायर् यूनिवर्स् फार् मी बिकास् आफ़् द वे इट् ट्रीट्स् आब्जेक्ट्स् एण्ड् द वे इट् ट्रीट्स् सब्जेक्ट्स् एण्ड् द वे इट् ट्रीट्स् एव्रिथिङ्ग्. Everything is treated equally. It is not like he, she, it. See, in English, if you know the dog is your dog, then you say he. Tommy, he is a good dog. If somebody else's dog, you say it. Tree becomes it. And as soon as something becomes it, in my heart, my attachment or my respect for that decreases. It's easier to hurt something when I call it it. It's harder to hurt something when I call it a her or he. And if that he and her becomes as close and equal to me calling myself, then I am again going to think twice before I do my whatever I say or do to that person or thing. Correct? So Sanskrit has really shown me this beautiful light that it makes you think twice about everything. So don't think of living and non-living. Why are certain things in neuter gender? Why are certain things in masculine? Why are certain things in feminine? Sometimes it makes sense to us. Sometimes it doesn't yet make sense to us. We simply accept at this level and try to learn it. अस्तु. सो अकारान्तः अह अन्ते पुंलिङ्गः शब्दः अकारान्तः अम् अन्ते. यदि अम् अन्ते अस्ति चेत् नपुंसकलिङ्गः शब्दः अधिकतया सन्ति. Mostly, if they are ending, then they are likely to be napumsakalinga. And if they are ante, at the end they have lata, lekha, sandhya, vriddha, vaidya, then they are likely to be Strilingaha. So this you keep that in mind. Along with the gender, you have to match the saha, sa, tat, eshaha, esha, etat, kaha, ka, kim, kaha syutaha. You will not say ka syutaha. You will not say kim syutaha. किं पुस्तकं, का बालिका, कः बालकः,
इकारान्त इकारान्त भी स्त्रीलिंग रहेगा ना. इकारान्त
नहीं, विल गो इन टू दैट लेटर महोदय.
अधिकतर अधिकतर
विल डू इट लेटर. इट विल कम सून. लेट अस डू दिस. उसमें ई में भी आता है, दूसरे लिंग भी आते हैं, बट हाँ, अधिकतर यू आर राइट. सो नाउ नितिन महोदया, मार्जरः मार्जरः इत्युक्ते बिल्ली
बिल्ली
मार्जरः मार्जरः लघु एकं लघुवाक्यं रचयतु महोदय
मार्जरः गच्छति
मार्जरः गच्छति इत्युक्ते
बिल्ली जा रही है
बिल्ली जा रही है किन्तु सः एषः कः तत् एतत् किं सा एषा का इति शब्द उपयुज्य लघुवाक्यं रचयतु महोदय
एषः मार्जरः
एषः मार्जरः गच्छति
गच्छति एषः मार्जरः गच्छति
इत्युक्ते
ये बिल्ली जा रही है
यदि मार्जरः दूरे अस्ति चेत्
सः मार्जरः गच्छति
सः मार्जरः गच्छति उत्तमं धन्यवादः महोदय अपर्णा भगिनी रथः इत्युक्ते
इट्स्
चारियट् उत्तमं भगिनी
सो एषः रथः अस्ति
एषः रथः अस्ति उत्तमम् अपि च दूरे अस्ति चेत्
सः रथः अस्ति
सः रथः अस्ति यदि प्रश्नवाचकवाक्य अस्ति चेत्
एषः कः एषः रथः कः गच्छति
कः गच्छति इत्युक्ते कौन् जाता है देन् यु नाट् कः नो कः इत्युक्ते कौन् मास्क्युलिन् पुंलिङ्ग कौन् बिकम्स् कः सो कः रथः कौन् सा रथ
ओके
सारे रथ खड़े हैं कौन् सा रथ लैक् देट So many are there. Which one? Kaha? Kaha rathaha? Eshaha rathaha? Astu. Woh wala nahi, ye wala. Saha rathaha na, eshaha rathaha gacchati. Avagatam.
Eshaha rathaha gacchati.
Uttamam. Uttamam. Usha bhagini. मन्थानः मन्थानः इत्युक्ते
मन्थान नो नो
आईडिया लस्सी बनाते हैं आप कभी लस्सी किससे बनाते हैं
ओ मन्थन ओके या आई नो या आई डोंट नो व्हाट मन्थ दैट इज अ हिंदी वर्ड हिंदी आल्सो यू से
हिंदी आल्सो वी से मथनी मथनी आई डोंट नो कन्नडा और इन कन्नडा आई व्हाट डू यू कॉल इट
कडगोलू
कडगोलू कड्गोलु मन्थानः कड्गोलु लघुवाक्यं रचयतु भगिनि
कः वित् कः एतत् एतत् मन्थनः
एतत् एतत् इति पदं लिङ्गः कः एतत्
ओके नपुंसकलिङ्ग्
मन्थनः मन्थानः इति पदं पदस्य लिङ्गः कः
एतत् मन्थान
न न भगिनि एकनिमिष वन् मिनिट् भगिनि मन्थानः इति पदस्य इस् बिलाङ्गिङ्ग् टु दिस् वर्ड् लिङ्गः कः वट् इस् द लिङ्ग मन्थानः
नपुंसकलिङ्ग्
चिन्तयतु भगिनी थिङ्क् अगेन् अह अन्ते
अह इस् पुल्लिङ्ग्
मन्थानः लिङ्गः कः
मन्थानः पुल्लिङ्गः
पुंलिङ्गः
पुंलिङ्गः
अधुना लघुवाक्यम् एकं लघुवाक्यं रचयतु भगिनी
मन्थानः एक मिनट कः कः मन्थानः कः मन्थानः
कः मन्थानः उत्तमम् इत्युक्ते
वेर् इस् द वट् एवर् दट् इस् वेर् इस् दिस् मन्थानः
किन्तु कः भगिनी एकनिमिषं म्यूट् करोतु भगिनी अपि च दीपशिखा भगिनी आगच्छतु कः मन्थानः कः मन्थानः इत्युक्ते भगिनी
कः मन्थानः मीन्स् विच् मन्थानः कः मन्थानः कौन्सा मन्थानः विच् वन्
उत्तमं भगिनी सो यू केनाट् अस्यूम् देट् कः मीन्स् एनी क्वश्चन् कः सिम्प्ली मीन्स् that linga that you are talking about in this case kaha is pumlinga so is referring to kaun sa kaun what something pumlinga it doesn't mean where is it what is it it doesn't mean any of the other question words you cannot assume kaha you cannot assume so kaha manthana
if I can ask
So
if I have to ask where is that manthan how do I say that
I will teach you that first let us say use kaha kim ka first let us use this one word
okay.
then next we graduate to where
okay
otherwise Sorry. Bagini it gets very confusing later
yes,
for
yes,
you no
yes.
so we okay, just sure. gradually
Sure,
and
sure.
when I teach you, you'll say, I know this, because you probably know it. But now we'll stick with Shamyatam Bhagini. Forgive me for this. But today we'll stick with Kaha. So, Usha Bhagini, ekam laghu vakyam rachayatu?
With Kaha? With a different word?
No, Manthanaha.
Oh. कः मन्थानः किं 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 मन्थानः
वेन् विल् यु यूस् किं भगिनी
इस् वेन् इट् इस् अ पुल्लिङ्ग् ऐ मीन् न्यूटर्
सो मन्थानः इस् विच् जेण्डर्
पुल्लिङ्ग् ओ यु काण्ट् आस्क् लैक् देट् ओके कः ओके सः मन्थानः
ओ उत्तमं सः मन्थानः इत्युक्ते
द मन्थान इस् वेर् इस् द मन्था इस् फार् वः वः मन्थान
उत्तमं भगिनि उत्तमं सुन्दरं वः मन्थान् यु गेट् इट् नौ उत्तमं प्रेम भगिनी आगच्छतु मकरः
मकरः
सः मकरः
अस्ति
सः मकरः अस्ति सः मकरः अस्ति इत्युक्ते
इट् मीन्स्
देट् इस् अ क्रोकोडैल् यदि मकरः समीपे अस्ति चेत्
एषः
मकरः अस्ति यु डोण्ट् वाण्ट् देट् उत्तमं भगिनी उत्तमं धन्यवादः अपि च चेल्ना भगिनी आगच्छतु वैद्यः चेल्ना भगिनी अस्ति वा चेल्ना भगिनी अस्ति वा अस्तु लास्या भगिनी आगच्छतु लास्या भगिनी अपि च लेखा भगिनी
दर्पण इदु हेळु मञ्च हेळ्त्या
लास्या भगिनी अपि
च एतत्
एकनिमिष एकनिमिष भगिनि मकरः मकरः न वैद्यः वैद्यः इति स्वीकरोतु एक्सेप्ट् दिस् वर्ड् अण्ड् मेक् अ लघुवाक्यं रचयतु वैद्यः वैद्यः इत्युक्ते भगिनि
वैद्य अन्द्रे न वैद्य अन्द्रे डाक्टर् अन्त
एषः वैद्यः अस्ति
अस्ति इत्युक्ते भगिनी वाट् डस् इट् मीन्
what is the meaning of that sentence? Vaidyaha andre doctor. Ha, illi doctor idare.
Here doctor is there.
And if doctor is far away, how will you say it?
Sa vaidya.
किन्तु वैद्यः पदमस्ति वैद्यः लिङ्गः पुंलिङ्गः पुंलिङ्गः पदमस्ति सो यदि दूरे अस्ति चेत् इफ् द डाक्टर् इस् फार् अवे वाट् विल् यू से उत्तमं सः वैद्यः अस्ति इत्युक्ते वाट् डस् इट् मीन् देर् इस् अ डाक्टर् हियर् इस् अ डाक्टर् देर् इस् अ डाक्टर् लैक् देट् उत्तमं धन्यवादः भगिन्यौ धन्यवादः अधुना अस्तु अपर्णा भगिनी विमानं विमानम्
एतत् विमानम् अस्ति
उत्तमं भगिनी सुन्दरम् इत्युक्ते
This is an aeroplane. यः एरोप्लेन् है
उत्तमं यदि दूरे अस्ति चेत्
तत् विमानम् अस्ति वः विमानं है
उत्तमं हौ डिड् यु नो इट् वास् अ नपुंसकलिङ्ग्
बिकास् इट् एण्ड्स् इन्
अम् उत्तमं विमानं सो यु नो राइट् अवे धन्यवादः भगिनी सुन्दरं उषा भगिनी आगच्छतु लोकयानम् इत्युक्ते बस् लोकल् बस् पब्लिक् बस्
ओके
लोकयानम्
एषः यानम् ओके किं
प्रश्नवाचकः शब्द वाक्य रचय
किं किम् किं वाट् इस् दट् लोकयानं
किं वर्ड्स् एव्रिबडि रैट् देम् डौन् प्लीस् आल् द वर्ड्स् ऐ एम् गिविङ्ग् यु प्लीस् रैट् देम् लोकयानं वदतु भगिनि
किं किं लोकयानम् अस्ति
इत्युक्ते इत्युक्ते
वेर् वेर् इस् द public bus
where
is the bus
where are you getting the word where from where kim. means what
kim
kim does not mean where bagini what does kim mean what does kaha mean
kaha
kahasyutah kahasyutah chute
kaha is what
kaha kahasyutah ichute
What is, no, kaha, yah, kaha is, confused.
Kaun sa, which one, which?
Which bag,
which bag. So, किं लोकयानम् इत्युक्ते
विच् बस् ओके किं लोकयान
लोकयानम्
लोकयानम् ओके किं लोकयानम् अस्ति
अस्ति
किं वाट् इस् अस्ति इस्
अस्ति
ओके
सो किं लोकयानम् अस्ति इत्युक्ते कौन् सी बस् है
कौन् सी बस् है करेक्ट् विच् बस् इस् दिस्
विच् बस् इस् दिस् यु आर् आस्किङ्ग् विच् बस् इस् दिस् यु आर् लुकिङ्ग् फार् अ बस् टु बेङ्गलोर् विच् बस् इस् दिस् लैक् देट् यु विल् आस्क् नो लोकयानम् उत्तमं नितिन् महोदय नेत्रम्
किं नेत्रं
किं नेत्रम् उत्तमम् इत्युक्ते
कौन् सी आङ्क्
कौन् सी आङ्क् ब्यूटिफुल् टेढ़ी आँख
आई हैव टू आई हैव टू आईज सो आई एम आस्किंग मेरी दो आंखें तो कौन सी आंख
उत्तम उत्तम महोदय प्रेमा भगिनी व्यजनम व्यजनम
किम व्यजनम
इच्छुक्ते भगिनी
व्यजनम इज व्हाट
व्यजन मीन्स् पङ्खा
सो विच् पङ्खा
पङ्खा इत्युक्ते फेन् विच् फेन् किं व्यजनं चलति कौन् सा पङ्खा चल रहा है
चलति चलति द वर्ब
चलति
अटति
किं व्यजनम् अस्ति कौन् सा पङ्खा है Which fan is there? You go to a room, you cannot find a fan. Say, Kim Vyajanam Asti? Which fan you are talking about, you can see here, I cannot see. Something like that, you see? Vyajanam. Dhanyavada Bhagini. Chelna Bhagini. Urukam. Urukam. Urukam ichyukte?
I have no idea.
Trousers, pants. Pants.
Urukam.
उरुकम्
किम् उरुकम्
किम् उरुकम् इत्युक्ते
विच् पेण्ट्
विच् पेण्ट्स् उरुकम् उरुकम् लास्य भगिनी पुष्पम् पुष्पम्
अन्द्रे फ्लवर् अन्त सो फ्लवर् बगे केळ्बेकु नीनु ओके
अस्ति सुन्दरं भगिनि उत्तमम् उत्तमं किं पुष्पम् अस्ति इत्युक्ते वाट् डस् इट् मीन्
नो वाट् इस् द मीनिङ्ग् आफ् युवर्
क्वेश्चन्
किं पुष्पम् अस्ति वाट् डस् इट् मीन् चिन्तयतु थिङ्क् अगेन् किं पुष्पम्
किम् अन्द्रे वाट् इस् द मीनिङ्ग् आफ् किम्
सो इफ् ऐ सेड् किं पुस्तकम् इट् मीन्स् विच् बुक्
Which flower is it?
Uttamam bhagini. Kim pushpam asti? Which flower is there? Sundaram. Lekha bhagini. Patram.
Kim patram asti?
Ichukte bhagini?
Which is...
Which... पत्रम् इत्युक्ते लीफ् भगिनि लीफ् पट्टि विच् लीफ् इस् देर् अस्ति यु केन् से किं पत्रम् अस्ति विच् लीफ् इस् देर् ऐ विल् गिव् यु टू मोर् वर्ड्स् फार् लीफ् एव्रिबडि पत्रं पर्णं पर्णं पर्णम्
जस्ट वन् क्वेश्चन्
पत्रम्
पत्रम् इस् आल्सो नाट् मीनिङ्ग् आफ् लेटर्
आल्सो देट् इस् हौ लेटर् केम् नो भगिनि फस्ट् यू यूस्ड् टु रैट् इट् आन् द लीफ् ओन्ली नो
ओके गाट् इट्
And leaf has done so many functions. See, this is, thank you for bringing this point. So, first of all, I explained a little bit how Sanskrit has given me so much new relationships with the universe, simply because of the grammar and the way they approach objects and subjects. But also, every word in Sanskrit, every noun, you know what nouns are?
Yes.
What is a noun, Bhagini?
A noun is a place.
Shabdaha. Uttamam. What kind of shabdaha?
I don't know.
Good. If you don't know, very nice you say, I don't know. Because only then we can learn, no, Bhagini?
Yes.
Only if I say, if I said to myself, I know everything, I'll never learn Sanskrit. First thing I say is, I don't know. Then only in my brain has space to learn something. Yes. First you have to say, I don't know. Beautiful. Thank you, Bhagini. So, what it does is that this Sanskrit, actually, the way it works, is it every noun means the name of anything, like you say this is a table. What does it mean? Table is only a name of that object, correct? Aeroplane. Mute karo to bagini, mute karo to please. So noun is the name of anything. A table is a name. Chair is a name. World is a name. Sun is a name. These are nouns. If I ask you, why is a table called a table? Can anybody give me a reason why this word sounds like table? Table. Why should this mean this object with a flat platform and four legs? Nobody has given me an answer. I've spent 10 years teaching language, learning languages, learning to be a linguist. No answer exists. Seems like almost like a random word has come up for an object. But in Sanskrit Bhasha, every word has come out of an experience. So for example, a table is what? Utpitika. Ut means risen, higher. High, tall. Pitika means like a flat peat, like a flat back. If I were to stand, like if I were to do good yogasana, then if I stand and I bend at my hips only and have a straight flat back, is like a table only, no? Utpitika. This utpitika is a noun. But look how it comes. Look how the word comes. The origin of the word. Look at how they originated this word. Every noun in Sanskrit Bhasha comes like that. You can question it if you don't know. I may not know the answer, but I will certainly try to find it for you. And I know it will be there.
ये इसी तरह से शब्द बनता है ना, जैसे शीत पेटिका या शीत बंदिका.
हाँ, एक एक शब्द संस्कृत में इतनी सुंदरता से बनाया है क्योंकि वो किसी का अनुभव से बना है वो शब्द. और यही गुण है संस्कृत का, दैट एनी संस्कृत स्कॉलर अपने अनुभव से कभी भी नया शब्द उत्पन्न कर सकता है. You can create your own words because your experience is your own. Who is to say you don't have this experience? Nobody can question that. But using the language, if you know it, you can create your own words. Because that is your experience. That is why hum log ke Sanskrit mein there are like hundreds of words for one thing, like Agni. Come 200 words are there for Agni, you know that? because you can have 200 experiences have been had with something called fire. Fire is what? That rises, that dries, that heats, that is always changing, that is always red and yellow, that flaps around in its own structure but is never stable, that devours everything. You see what I'm saying? It's all fire only. So each word is that expression of fire. So how beautiful this language is. How beautiful it is. It is past time and I need to stop. So let me quickly. I will send to you. Maybe I won't send to you. I think the words you have learned today.
Class is till 9 o'clock, no?
That's my question. Is it already 1.5 hours?
Bagini? No, it's not. It's only 7:30 you started. It's 8:35.
So you started at 7:35.
Ah,
so the class is
thank you.
1.5 hours.
Thank you, Bagini. Thank you for clarifying.
So you have, have 20. Okay. 25 minutes more.
Dhanyavada, Bhagini, because I am in so many classes when my clock is confused. Okay, Dhanyavada, Bhagini. Okay, so Sanskrit has given this amazing capacity. And because of this amazing capacity, nobody has been able to come up with a complete dictionary of all the words in Sanskrit. And you cannot. Because new words are always going to come. Some 10, 20 years ago, the greatest scholars of Sanskrit got together to try to write the most complete dictionary. You know what letter they are on? Ah. They finished A, then they are on A. 20 years have gone by. Forget all the other letters. Can you believe that? So this is the capacity of this amazing language. And that is the beauty of this language. So you should always ask yourself, where does this word come from? And then I will show you slowly, I will share with you certain links. So today I will share with you a link right now, which is called, I will put it on chat just now for you. You must see if you have a laptop or something. So everybody has chat, correct? And here it is. So there is a link called http://spokensanskrit.org. Kripaya udghatayatu. So once you open it, you can find lots of English to Sanskrit words in that. For simple objects will be there. And then in the middle, they will tell you the linga, masculine M, napumsakalinga N, strilinga S, female, like that. So, let me continue with our questions. Deepshika Bhagini. जलम् इति पदं स्वीकरोतु एकं लघुवाक्यं रचयतु जलम्
एतत् जलम् जलम् अस्ति
इत्युक्ते भगिनी
यः जल है यः पानी है
उत्तमं यदि दूरे अस्ति चेत्
तत् जलम् अस्ति वह पानी है
उत्तमं सुंदरं भगिनी उ सुंदरं अपि च अहं मन्ये सर्वे अपर्णा भगिनी वातायनम् इत्युक्ते
वातायनम्
विंडो
एतत् वातायनम् अस्ति
आ सुन्दरं सुन्दरं भगिनी इत्युक्ते
यः विण्डो है
खिड्की है यः खिड्की है दिस् इस् अ विण्डो उत्तमम् अग्रिमम् उषा भगिनी द्वारम्
एतत् द्वारम् अस्ति
इत्युक्ते
here is the door
दूरे यदि दूरे अस्ति चेत्
तत् द्वारम् अस्ति there is the door
प्रश्नवाचक वाक्य भगिनि
किं द्वारम्
इत्युक्ते
where is the window
चिन्तयतु भगिनि
which window sorry
window नास्ति भगिनि द्वारम् इत्युक्ते
sorry which द्वारम् Which door?
Kim dwaram?
Kim dwaram?
Aham na pashyami, kim dwaram? I don't see. Which door?
Yeah.
Aham na pashyami, kim dwaram?
Yeah.
Like that, huh?
Yeah.
Uttamam bhagini. Nitin Mahodaya, nagaram?
एतत् नगरम्
एतत् नगरं
किं नगरं
किं नगरं पुणेनगरम् अहं पुणेनगरे
अहं पुणेनगरे
वसामि
ओके
नगरे इत्युक्ते सप्तमी So in those tables I told you about today,
yes.
So these are the Vibhakti tables. In the Vibhakti tables there are 7 Vibhaktis, 7 cases. Jo aapne bola tha na karta ne karma ko like that, there are 7 cases. Saptami jo hai, the seventh one is the location. Kahan pe? Iske upar, kiske andar.
लेकिन वो संबंध के लिए यूज होता है ना मतलब षष्ठी के लिए यूज होता है शायद ना
हाँ तो वो संबंध जगह का संबंध है ना
अच्छा तो जगह का संबंध अलग है और रहने का संबंध रहने का
नहीं रहने का ही है वो नगरे वसामी नगर में रहता हूँ
षष्ठी हो गया फिर
षष्ठी इज लाइक अ संबंध लाइक जिसको हम लोग बोलते हैं बिलोंगिंग टू किसका
ओ बिलोंगिंग ओके
षष्ठी किसका
वही मैं देख रहा था सुन
हाँ नगरे वसामी पुणे नगरे वसामी मैं पुणा नगर में रहता हूँ
जी
नगरम हाँ धन्यवाद महोदया प्रेमा भगिनी आगच्छतु सेवफलम्
किं सेवफलम् अस्ति
इत्युक्ते
विच् एप्पल् इस् इट्
किं सेवफलम् अस्ति रक्तसेवफलम् अस्ति अस्तु सुन्दरं धन्यवादः भगिनि चेन्ना भगिनि
द्राक्षाफलं
लास्य भगिनि कृपया म्यूट् करोतु चेल्ना भगिनी आगच्छतु चेल्ना भगिनि द्राक्षाफलं
किं द्राक्षाफलं
द्राक्षाफलम् नो फलं न भगिनि फलम् उत्तमं द्राक्षाफलम् इत्युक्ते
डेट्स्
ग्रेप् ग्रेप्स् अङ्गूर्
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 एक्स्क्यूस् मी इस् द्राक्षफलम् और् द्राक्षाफलम्
द्राक्षाफलम्
द्राक्षफलम्
द्राक्षाफलम्
धन्यवादः
द्राक्षाफलं किं द्राक्षाफलम् एतत् द्राक्षाफलम् सो ऐ विल् नौ बिकास् द्राक्षाफलं हेस् कम् ऐ विल् टीच् यु वन् मोर् थिङ्ग् बिकास् इट्स् सो हार्ड् टु ईट् ओन्ली वन् ग्रेप् नो यु वाण्ट् टु ईट् मेनि सो किम् is for ekavachana kim draksha phalam kani draksha phalani ichukte bahuvachana
so that is for plural bahuvachana
astu bhagini plural many grapes are there kani द्राक्षाफलानि कौन् से अङ्गूर् विच् ग्रेप्स् कानि द्राक्षाफलानि कानि द्राक्षाफलानि सन्ति नाट् अस्ति अस्ति इस् एकवचन इस् सन्ति इत्युक्ते आर् कानि द्राक्षाफलानि सन्ति कौन् से अङ्गूर् है
बहुवचन
बहुवचन द्राक्षाफलानि उत्तमं लास्या भगिनी आगच्छतु नारङ्गफलं नारङ्गफलम् उत्तमम् उत्तमम्
ओके नौ यु आस्क् क्वश्चन् आस्क् क्वश्चन् यु केन् यूस् दीस् त्री
वाट् इस् इट्
आस्क् हर् वाट् इस्
द वाट् इस् द वर्ड् अगेन् फ्रूट् अगेन्
नारङ्गफलम्
का नारङ्गफलम् अस्ति
का भगिनी का
का
का इति स्त्रीलिङ्गपदम् अस्ति अत्र नपुंसकलिङ्गपदमस्ति नारङ्गफलम्
नपुंसकलिङ्गम्
कथं वदति कथं वदति
किम्
सेण्टेन्स् फ्रोम् द सेण्टेन्स्
किं फल अस्ति
किं नारङ्गफलम् अस्ति
किं नारङ्गफल अस्ति
शृणोतु भगिनि किं नारङ्गफलम् अस्ति भगिनि एकनिमिष भगिनि पुनः वदतु किं नारङ्गफलम् अस्ति पुनः वदतु पुनः से इट् अगेन् रिपीट् आफ्टर् मी किं नारङ्गफलम् अस्ति इत्युक्ते चिन्तयतु इति न वेर् नो भगिनि वी हेव् नाट् लर्न्ड् वेर् येट् वाट् हेव् वि लर्न्ड् सो फार् किम् इत्युक्ते चेल्न भगिनि किम् इत्युक्ते
Which
orange? So many oranges are there. Which orange?
किं नारङ्गफलम् अस्ति?
उत्तमम् उत्तमम्. लेखा भगिनी, कदलीफलं, कदलीफलम् इत्युक्ते बनाना. उत्तमं. कदलीफलं लघुवाक्यं रचयतु भगिनी. उत्तमं, सुन्दरं भगिनी, सुन्दरम् इत्युक्ते
बनाना.
किन्तु वाक्यम् इत्युक्ते उत्तमम्. एण्ड् इफ् यु वर् टु आस्क् इन् प्लूरल्, मेनि बनानास् आर् देर् एण्ड् यु आर् आस्किङ्ग् विच् आल् बनानास्, हौ विल् यु आस्क्? This is singular, no? Which banana means one banana only you are asking. Say more are there. How will you ask, Bhagini?
One banana.
No, one is not enough. You are growing now. See, you are going to become so big. You have to eat many bananas.
I don't know.
If you don't know, then how will you grow?
I forgot.
प्रेमा भगिनी सहायं करोतु.
कानि कदलीफलानि सन्ति?
उत्तमं, वदतु लेखा भगिनी.
कानि
कदलीफलानि
उत्तमम् उत्तमं, धन्यवादः प्रेमा भगिनी. पुनः वदतु लेखा भगिनी. कानि
फलानि सन्ति?
कानि कदलीफलानि सन्ति?
कानि
कदलीफलानि
सन्ति?
Which bananas are there?
Which bananas are there?
कानि कदलीफलानि सन्ति?
कानि
सन्ति. उत्तमं, धन्यवादः भगिनी. म्यूट् करोतु कृपया, अपि च प्रेमा भगिनी म्यूट् करोतु. दीपशिखा भगिनी, आम्रफलम्.
आम्रफलम्, ओके. किम् आम्रफलम् अस्ति
इत्युक्ते
किम् आम्रफलम् अस्ति? विच् मेङ्गो
इस्,
कौन सा आम है?
कौन सा आम है? यदि बहु आम्र फलानि सन्ति चेत्
कानि आम्र फलानि सन्ति?
उत्तमं भगिनी, उत्तमं. कानि आम्र फलानि
सन्ति? आम्र फलानि सन्ति.
कौन से फलानि? यू आर आस्किंग मी.
कानि आम्रफलानि सन्ति?
यु आर् आस्किङ्ग् मी कौन् से आम् है. सो ऐ विल् रिस्पोण्ड्, तानि आम्रफलानि सन्ति. तत् आम्रफलम् इत्युक्ते
तत् आम्रफलं वः आम् है. तत् आम्रफलम्
अस्ति.
अस्ति वह आम है तत् आम्रफलम् अस्ति
तानि आम्रफलानि सन्ति इत्युक्ते
तानि आम्रफलानि सन्ति इत्युक्ते कौन से आम है
तानि प्रश्नवाचक
तानि अच्छा नहीं तानि अच्छा वह आम है वह
वे
वे, वे आम है बहुत सारे आम हैं तो वे
आई थिंक दीपशिका भगिनी प्रोबेबली लाइक्स आम
वे आम हैं
वन इज नॉट इनफ उत्तमम् उत्तमं भगिनी उत्तमम् अस्तु अस्तु अपि च अपर्णा भगिनी पुनः आगच्छतु शुनकः
शुनकः शुड् ऐ आस्क् अ क्वेश्चन्
एकं लघुवाक्यं
लघुवाक्यं तत् शुनकम् अस्ति
शुनकः
शुनकः एषः शुनकः अस्ति
उत्तमम् उत्तमम् एषः शुनकः अस्ति इत्युक्ते
यः कुत्ता है
यः कुत्ता है पर्यायवाची शब्दः कुक्कुरः
कुक्कुरः
कुक्कुरः पर्यायवाची शब्दः अस्ति कुक्कुरः
एषः कुक्कुरः अस्ति
अस्ति सः अस्ति
सः कुक्कुरः अस्ति वो कुत्ता है
अपि च सः शुनकः
सः शुनकः अस्ति
अस्ति यदि बहु शुनकाः सन्ति
तानि
तानि न भगिनी तानि नपुंसकलिङ्ग सः तौ ते
शुनकाः सन्ति
ते शुनकाः सन्ति ते कुक्कुराः सन्ति उत्तमम् उत्तमम् अग्रिमम् उषा भगिनी
शङ्का
वदतु महोदय
ते जो है वो बहुवचन है सः के लिए कि एषः के
लिए
सः के
लिए एते एषः के लिए एते सः के लिए ते सः तौ ते एषः एतौ एते एतौ एतौ माने द्विवचन द्विवचन इत्युक्ते वेन् टु थिङ्ग्स् आर् देर् ओन्ली टु आर् देर् द्विवचन अस्ति वा धन्यवादः महोदय उषा भगिनी आगच्छतु दीपः
दीपः एषः दीपः अस्ति
अस्ति उत्तमम् इत्युक्ते
दिस् इस् अ लैम्प्
दिस् इस् अ लैम्प् यदि बहु दीपाः सन्ति चेत्
ते दीपः
दीपाः
ते दीपाः सन्ति
सन्ति ते दीपाः सन्ति एषः दीपः अस्ति यदि बहु दीपाः सन्ति
I'm just a little confused. Why are we using pulling?
Vadatu, Chelna Bhagini, vadatu.
We are using pulling here, right?
Aam Bhagini, pulling.
How is this referred as a pulling?
Puna vadatu Bhagini, Chelna Bhagini.
How is Deepak or Deep is referred as a pulling?
दीपः अह अन्ते अह दीपः I didn't say दीपम्
okay
I did not say शुनकम्
got it
So I did not specify it is pumling or napumsakaling. That is for you to guess from the ending.
Okay.
So simply I am giving you the word. You have to guess the gender and then make a sentence.
Got it.
Siva?
Yeah. Oh, thank you.
Dhanyavada bhagini. Chinta mastu. Usha bhagini. Avagachativa. Usha bhagini.
Yeah.
उत्तमं नितिन् महोदय आगच्छतु विद्युद्दीपः
एषः विद्युद्दीपः अस्ति
इत्युक्ते
ये एक बल्ब है
बत्ती बोलते हैं हम लोग
बिजली वाली बत्ती
इलेक्ट्रिक लैम्प
इलेक्ट्रिक बल्ब
यदि बहु विद्युत दीपाः सन्ति चेत्
बहु एते विद्युत दीपानि सन्ति
दीपानि न महोदय
एते विद्युत दीपाः सन्ति
उत्तमम् एते विद्युद्दीपाः सन्ति ते विद्युद्दीपाः सन्ति उत्तमम् प्रेमा भगिनी गजः
एषः गजः अस्ति
इत्युक्ते
दिस् इस् एन् एलिफेण्ट्
यदि बहु गजाः सन्ति चेत्
एते गजाः सन्ति
उत्तमं धन्यवादः भगिनी
धन्यवादः
चेल्ना भगिनी चषकः षट्कोन् चषकः
Can you repeat again? Sorry.
Chashakaha ichukte
specs. No. Is it specs?
Glass. Cup.
Glass. Oh, okay, cup.
Is that first sha or second sha?
Shatkon, the one like with the pet kata. Second the one that looks like a pa. Shatkon. Vadatu bhagine?
Will it be Kim?
Chashakaha. Linga kaha bhagini?
नपुंसकलिङ्ग
चषकं नास्ति भगिनि चषकः
कः पुल्लिङ्ग
पुल्लिङ्ग अस्ति चेत्
पुल्लिङ्गहम्
पुल्लिङ्ग अस्ति चेत्
एषः
अपि च सः राइट
यस
सो लघुवाक्यं रचयतु भगिनी चषकः उपयुज्य
एषः चषकम् अस्ति
चषकं नास्ति भगिनी चषकं कथम् आगच्छति हौ यु आर् मेकिङ्ग् इट् अम् एण्डिङ्ग् चषकः
अस्ति
एषः चषकः अस्ति एषः चषकः अस्ति
एषः चषकस्ति
भगिनि एषः चषकः अस्ति
चषकः
चषकः
चषकः एषः चषकः अस्ति.
उत्तमं. किञ्चित् क्लेशः जातः किन्तु समीकरो उत्तमं भगिनि, साधु. एषः चषकः अस्ति, वदतु भगिनि.
एषः चषकः अस्ति.
अस्ति, उत्तमम्. यदि दूरे अस्ति चेत्
सः चषकः अस्ति.
उत्तमं. यदि बहु चषकाः सन्ति
एते चषकाः अस्ति. नो, सन्ति.
सन्ति, पुनः वदतु भगिनि.
एते चषकाः सन्ति.
उत्तमम्, उत्तमं, सुन्दरं भगिनि, धन्यवादः. लास्या भगिनी आगच्छतु. हस्तः, हस्तः, एकं लघुवाक्यं रचयतु भगिनि. हस्तः, लास्या भगिनी. एकं लघुवाक्यं रचयतु हस्तः इति पदम् उपयुज्य. भगिनि, 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 हस्तः लिङ्गः कः?
हस्तः अन्ते याव लिङ्ग? याव लिङ्ग? पुल्लिङ्गन, स्त्रीलिङ्गन, नपुंसकलिङ्गन?
हस्तः, हस्तः, अह अन्ते अह अस्ति चेत्
अह इति अल्वा, इदु पुल्लिङ्ग, इदु स्त्रीलिङ्ग, यावदु?
पुल्लिङ्ग. अस्तु, एकं लघुवाक्यं रचयतु भगिनि.
एषः सः हस्तम् अस्ति.
हस्तं कथं आगच्छति भगिनि? हस्तं न भगिनि, हस्तः.
हस्तः अस्ति.
पुनः वदतु, पुनः वदतु.
एषः हस्तः अस्ति.
उत्तमम्. इत्युक्ते what does it mean?
Yeshaha means what?
Yeshaha. Here is paw.
Hand. Hand. Uttamam. Here is a hand. Yeshaha hastaha asti. Yadi dve हस्ते स्तः. यदि द्वे हस्ते स्तः चेत् कथं वदामः? हौ विल् वी से? यू हेव् टु हेण्ड्स् नो भगिनि? हौ मेनि हेण्ड्स् यू हेव्?
Two hands.
So, how will we say?
Eshaha.
So, saha, you can say. With Eshaha, you say Eshaha. Etau. Etau.
Etau.
Hastau. प्लूरल् नास्ति भगिनि, केवलं ओन्लि टु. इफ् ओन्लि टु आर् देर् नाट् मोर् देन् टु, देन् रिपीट् आफ्टर् मी भगिनि. एतौ,
एतौ,
हस्तौ,
हस्तौ,
स्तः,
स्तः,
नो, स्तः,
स्तः,
नो, स्तः. So if only two are there, you will use this ending. Etau, hastau, staha. For only two. So if two Ramas are there, only one Rama is there with Lakshman, no?
Yes.
How many? Ah, but if two Ramas are there with Lakshman, how will you say? Etau.
Etau.
Ramau.
Ramau.
Staha.
Staha.
If now both you girls are there, so two cups of milk are there, no?
Yes.
So, etau.
Etau.
Chashakau.
Chashakau.
Chashakau. Taha.
Taha.
And then you are walking on the road, you see two elephants, what will you say? Etau.
Etau.
Gajau.
Gajau.
Taha.
Taha.
Then you go further, you see two crocodiles, what will you say? Etau.
Etau.
No, etau.
Etau.
Okay, you say now. Two crocodiles. What will you say?
Makarau.
Ah, uttamam bhagini. Makarau.
Makarau. Staha.
Ah, uttamam. 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 Sundaram bhagini. Sundaram. Ah, agre.
Dhanyavadaha.
Ah, uttamam bhagini. Deepshikha bhagini, antimam.
दर्पणः एषः दर्पणः अस्ति
इत्युक्ते
यः दर्पण है यः शीशा है
उत्तमम् हियर इज अ मिरर
हियर इज अ मिरर
यदि बहु दर्पणाः सन्ति चेत्
एते दर्पणा सन्ति
एते दर्पणाः
एते दर्पणाः सन्ति
उत्तमं यदि द्वे यदि द्वौ दर्पणौ स्तः
एतौ दर्पणौ स्तः
उत्तमम् 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 सर्वे जनाः बहु बहु सुन्दरं वदामः धन्यवादम् अधुना विरमामः अग्रिम कक्ष्यां मिलामः पुनः मिलामः सर्वे जनाः नमस्कारः अपि च अन्तिम मङ्गलाचरणं कः वदति Who wants to say the last Mangalacharanam?
I will say.
Bhagini, what is it?
Om Purnamada Purnamidam Purnat Purnamudachyate Purnasya Purnamadaya Purnametavashishyate Om Shanti Shanti शान्तिः हरिः ओम्
सर्वेभ्यः नमस्कारः बहु धन्यवादः पुनः मिलामः
धन्यवादः
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 धन्यवादः भगिनि
प्रति मङ्गलवारे